द्वादश श्लोकात् आरभ्य सर्वं किल करणीयम्?
आम्
अस्तु. भगिनी आरम्भं करोमि. द्वादश श्लोकः श्लोकं पठामः. तस्मिन् प्रदोषसमये सहसा हनूमान् तिच्छटायवनिकाम् अपनीय शत्रोः आविर्बभूव सुमनः परितोषणाय का प्रवेश नवनाटकसूत्रधारः चन्द्रस्य उदयः अभवत्. चन्द्रः आविरभूत् इति अस्ताचलस्य शिखरे चन्द्रः प्रदोषसमये आविर्बभूव इति वयं दृष्टवन्तः. इदानीं समुद्रतीरे लङ्कायाः बहिर्भागे हनुमान् आविर्बभूव तत्र अवतीर्णवान्, लङ्काप्रदेशं प्राप्तवान् इति अयं श्लोकः. किं कृत्वा प्राप्तवान्? सः रङ्गप्रवेशः इव अत्र चित्रितमस्ति. हनुमतः प्रवेशः रङ्गप्रवेशे इदं आदौ कः आगच्छति? नटः, सूत्रधारः आगच्छति. सः नाटकस्य अवतरणं करोति, अवतारिकां प्रस्तौति. ततः परम् एव अभिनेतारः आगच्छन्ति. तथैव अत्र लङ्का प्रवेश सीता पुनः प्राप्तिः इति यदस्ति तत् तस्य सूत्रधारः, तस्य नाटकस्य सूत्रधारः लङ्काप्रवेशः इति यद् नाटकमस्ति रच्यमानं, तत् तस्य नाटकस्य सूत्रधारः आञ्जनेयः. यथा कश्चन नटः यवनिकाम् अपसार्य तत्र सर्वेषां सामाजिकानां पुरतः आत्मानं प्रकटीकरोति, अनन्तरं वदति, तथा आञ्जनेयः किं कृतवान्? सः अपि काञ्चित् यवनिकाम् अपनीतवान्. का सा यवनिका इत्युक्ते रावणस्य कपट यद् वेषम् आसीत् लोके तस्य प्रसिद्धिः इत्यादिकं, तदिदानीम् अपनीतं. कीर्तिच्छटा यवनिकां, रावणस्य कीर्तिः इतः परं न भविष्यति, अपकीर्तिः एव भवेत् इति सूचनापूर्वकम् आगतवान् आञ्जनेयः इति अयं भागः विषयः अस्मिन् श्लोके उक्तः अस्ति. पदच्छेदं पश्यामः. तस्मिन् प्रदोषसमये सहसा हनुमान् कीर्तिच्छटा यवनिकाम् अपनीय शत्रोः आविर्बभूव सुमनः परितोषणाय लङ्काप्रवेश नवनाटकसूत्रधारः. अत्र क्रियापदमस्ति आविर्बभूव, प्रकटितः अभवत्. कः आविर्बभूव? हनुमान्. कीदृशः हनुमान्? लङ्काप्रवेश नवनाटकसूत्रधारः हनुमान्. सः किं कृत्वा आविर्बभूव? अपनीय. काम् अपनीय? कीर्तिच्छटा यवनिकाम् अपनीय. कस्य एषा यवनिका कीर्तिच्छटा यवनिका इत्युक्ते शत्रोः रावणस्य. कदा आविर्बभूव? तस्मिन् प्रदोषकाले. कथम् आविर्बभूव? सहसा आविर्बभूव. किमर्थम्? सः आविर्भूव सुमनः परितोषणाय देवानां सन्तोषाय अन्वयः भवति तस्मिन् प्रदोषसमये लङ्काप्रवेशनवनाटकसूत्रधारः हनुमान् सुमनः परितोषणाय सहसा शत्रोः कीर्तिच्छटायवनिकाम् अपनीय आविर्बभूव अन्वयार्थं प्रतिपदार्थं च पश्यामः तस्मिन् प्रदोषसमये तस्मिन् निशारम्भकाले लङ्काप्रवेशनवनाटकसूत्रधारः लङ्कायाः प्रवेशः इति यद् अकृतपूर्वं नाटकम् इतः पूर्वं तत् न अभवत् लङ्काप्रवेशः न जातः एव केनापि रावणेन ये जनाः आहूताः अथवा रावणस्य राक्षसाः अथवा तेन तत्र आमन्त्रिताः एव आयान्तुं शक्नुवन्ति अन्ये तत्र प्रवेष्टुमपि न पारयन्ति तादृशे नगरे इदं प्रथमतया अकृतपूर्वं नाटकं लङ्काप्रवेशः इति तस्य सूत्रधारः तस्य प्रवर्तकः नटमुख्यः आञ्जनेयः आविर्भूव सुमनः परितोषणाय देवानां प्रीणनाय सामाजिकानां मनोरञ्जनाय हनुमतः पक्षे देवानां प्रीणनाय देवताः अतीव सन्तुष्टाः यतः रामकार्यम् अग्रे प्रसरति शीघ्रमेव सीताहरणस्य प्रतीकारः भवति रावणः मारितः भविष्यति इति सर्वे देवाः एतद् अपेक्षमाणाः अतीव सन्तुष्यन्ति किल अतः सुमनः परितोषणाय सुमनसः देवाः सुमनाः देवाः सामाजिकनाटकपक्षे पश्यामः चेत् कथं भवति सुमनसः के भवन्ति इत्युक्ते सहृदयाः ये नाटकं पश्यन्ति सामाजिकाः तेषां मनोरञ्जनाय इति अपि वयं स्वीकर्तुं शक्नुमः सहसा शीघ्रमेव शत्रोः अरेः कीर्तिच्छटा यवनिकां यशः प्रसृतिरूपां यवनिकां तिरस्करिणी इति यवनिकायाः अपरं नाम अपनीय अपसार्य आविर्बभूव प्रकटितः अभवत् रावणः स्वतपोबलेन ब्रह्मणः वरं प्राप्य पराक्रमे देवानपि निर्जित्य स्थितः दुर्जेयः आसीत् सः सूर्यः अग्निः वायुः समुद्रः च इति सर्वे अपि देवाः तस्मात् बिभ्यति स्म तादृशस्य रावणस्य कीर्तिं क्षित्वा देवानां सन्तोषाय आञ्जनेयः तस्मिन् प्रदोषकाले सहसा लङ्काप्रवेशरूपाम् अपूर्वां लीलां तथा अरचयत् यथा कश्चन सूत्रधारः सायङ्काले प्रदोषकाले सामाजिकानां मनोरञ्जनाय यवनिकाम् अपसार्य रङ्गप्रवेशं करोति तत्र यथा पूर्वमुक्तं सुमनः परितोषणाय हनुमतः लङ्काप्रवेशः देवतानां सन्तोषाय भवति नाटके सूत्रधारस्य रङ्गप्रवेशः सहृदयानां तृप्त्यै भवति मनोरञ्जनाय भवति अत्र नव इति किमर्थम् इत्युक्ते अकृतपूर्वं नाटकम् इदं प्रथमतया लङ्काप्रवेशः भवति कीर्तिच्छटा यवनिका इति अस्ति कीर्तिच्छटा एव यवनिका कीर्तिच्छटा यवनिका रावणस्य उपरि रावणः पराक्रमी तेजस्वी इति सर्वे अपि लोके चिन्तयन्ति स्म किन्तु तथा नास्ति सः दुर्मानी अस्ति तस्य अपयशः शीघ्रमेव भविष्यति यतः सः तादृशं निन्दनीयं गर्ह्यं कार्यं कृतवान् अस्ति इति तस्य अपकीर्तेः सूचना यच्छन्निव आञ्जनेयः तत्र प्रविशति भगिनि एकक्षणं स्थगयामि भगिनि पुनः अनुवर्तयामि, क्षम्यताम्। अग्रे कश्चन गद्यभागः अस्ति, तत् पठामः। अत्र गद्यभागे किम् उक्तम् इत्युक्ते, तस्मिन् समये यदा आञ्जनेयः लङ्कां प्रवेष्टुम् उद्यतः आसीत्, तस्मिन्नेव क्षणे पुनः कश्चन विघ्नः सञ्जातः। लङ्कायाः अधिष्ठात्री देवता अवरुध्य स्थिता, अर्गलीभूय स्थिता। किमर्थं तथा स्थिता इत्युक्ते, सा एव लङ्कायाः रक्षिका, अधिष्ठात्री देवता। अतः तस्याः अनुमतिं विना प्रवेष्टुमेव न शक्यम्। अतः सा तत्र आगत्य स्थिता। सा आञ्जनेयम् एतदपि वदति, यदा सा पराजिता भवति, मुष्टिप्रहारेण आञ्जनेयः तम् तदा सा वदति, पूर्वमेव ब्रह्मदेवः माम् उक्तवान् आसीत् यत् यस्मिन् दिने कश्चन वानरः तव उपरि पराजयं प्राप्नोति, तस्मिन् दिने एषः राक्षसनिलयः नाशं नष्टं भवति इति अवगच्छतु इति ब्रह्मदेवस्य वाणीं सा इदानीम् आञ्जनेयं वदति। इदानीं गद्यभागं पठिष्यामः। तत्काले लङ्काधिदेवताम्
तर्जयन्तीं निर्जित्य
तया वानररचिता वग्न्योपज्ञम्
लङ्कायाम् अविकलम् एव
मैथिलीं विचिन्वन् नैऋतचक्रवर्तिनः प्रासादम् आससाद आससाद प्राप्तवान्। कुत्र प्राप्तवान् सः? नैऋतचक्रवर्तिनः प्रासादम्, राक्षसचक्रवर्तिनः भवनं प्राप्तवान्। एवमेव न प्राप्तवान्, मध्ये विघ्नः। कीदृशः विघ्नः? गृहीतयुवतिविग्रह काचित् तत्र स्थिता, युवतिविग्रह रूपं स्वीकृत्य लङ्काधिष्ठात्रिदेवता तत्र आगत्य स्थिता। एतद् भागं पश्यामः। अत्र मुख्यक्रिया अस्ति आससाद। आससाद नाम प्राप्तवान्। सहायकक्रियाः इति यदि त्वान्तम् अथवा शत्रन्तं पदं स्वीकुर्मः, तर्हि वयं लघुवाक्यैः एतस्य अर्थं द्रष्टुं शक्नुमः। सहायकक्रियाः सन्ति निर्जित्य विचिन्वन् इति। हनुमान् आससाद। कदा आससाद? तत्काले, दोषकाले आससाद। कुत्र आससाद? नैऋतचक्रवर्तिनः प्रासादम्, राक्षसराजस्य भवनम्। किं कृत्वा आससाद? निर्जित्य आससाद। कां निर्जित्य? लङ्काधिदेवतां निर्दिश्य गृहीतयुवतिविग्रहां स्त्रीरूपां गृहीत्वा या स्थिता तादृशीं राक्षसः राक्षसी इदानीं युवतिरूपं स्वीकृत्य तत्र स्थिता. किं कर्तुं गृहीतयुवतिविग्रहः सा आसीत्? आत्मना सह विग्रहं विधातुम्, हनुमता सह विग्रहं, विग्रहः नाम युद्धं, विग्रहं विधातुं, युद्धं कर्तुं. कथं भूतं विग्रहं विधातुं? कथं भूतं सा स्थिता? आरस्य अर्गलीभूय मार्ग हनुमतः अग्रे सञ्चारस्य विघ्नभूता अर्गलीभूय स्थिता. अर्गलं नाम कवाटस्य अर्गलं, बोल्ट् इति उच्यते. मार्गप्रसारस्य अर्गलीभूय इत्युक्ते मार्गम् अवरुद्ध्य. पुनः कीदृशीं लङ्काधिदेवतां भूयसा तर्जयन्ती, भर्त्सयन्तीं. यः आगन्तुकः अस्ति तं बहुधा भर्त्सयन्तीं, निन्दयन्तीं तां सः निर्जित्य, सः जितवान् आञ्जनेयः. आससाद यदा सः एषा अधिष्ठात्री देवता पराजिता अभवत् तदा सा अनुमतिं दत्तवती. विहितानुमतिः सन् प्राप्त, प्राप्तानुमतिः सन्. विहिता इत्युक्ते दत्त, कृत, कृता अनुमतिः, विहितानुमतिः. विहिता अनुमतिः यस्मै सः आञ्जनेयः विहितानुमतिः इदानीं. विहितानुमतिः सन् कया विहितानुमनिः मतिः? तया, लङ्काधिष्ठात्री देवतया. कीदृश्या तया? आवेदयन्त्या. पुनः किमपि कथयन्ती अपि आसीत्, किमपि वदन्ती अपि आसीत्. किं वदन्ती आसीत्? किं ज्ञापयन्ती आसीत्? वानररचितावज्ञोपज्ञं निजनिलय विलयम्. वानररचित अवज्ञा, वानरेण रचिता अवज्ञा, वानरेण रचितः पराजयः भविष्यति इति प्रथमज्ञानम्, उपज्ञा. उपज्ञा इत्युक्ते प्रथमज्ञानम्. तत् प्रथमज्ञानं निजनिलयविलयम् इति तत् आञ्जनेयम् आवेदयन्ती सा तम् अनुमतिं दत्तवती, ज्ञापयन्ति. कस्य शासनात् एतद् वचनं ज्ञातं? सरसिजासनशासनात्, ब्रह्मदेवस्य शासनात्. सरसिजम् आसनं यस्य सः. किं कुर्वन् आससाद? विचिन्वन्, अन्विष्यन्. तां विचिन्वन् मैथिलीं. कथं विचिन्वन्? अविकलमेव, शीघ्रमेव. तस्मिन् समये आत्मना सह युद्धं विधातुं गृहीतयुवतिविग्रहां मार्गप्रसाराय अर्गलीभूय भूयसा तर्जयन्तीं लङ्कादिदेवतां निर्जित्य हनुमान् वानररचितावज्ञोपज्ञं निजनिलयविलयं सरसिजासनशासनात् आवेदयन्त्या तया विहितानुमतिः सन् मैथिलीं विचिन्वन् नैरृतचक्रवर्तिनः प्रासादम् आससाद इति अन्वयः. हनुमान् प्रदोषसमये लङ्कां प्राविशत् तदा लङ्कायाः अधिष्ठात्री देवता लङ्किणी स्त्रीरूपं, युवतीरूपं धृत्वा नगरप्रवेशद्वारस्य विष्कम्भत्वेन अर्गलरूपेण हनुमतः मार्गम् अवरुद्ध्य स्थिता. तेन सह योद्धुम् उद्यता सा हनुमन्तं भृशम् अनिन्दत्, निन्दितवती. यदा हनुमान् ता मुष्टिप्रहारेण पराजितवान् तदा सा राक्षसी साक्षात् ब्रह्मणः मुखात् तया श्रुतं वचनम् इदं ज्ञापितवती. किं ज्ञापितवती? यस्मिन् दिने केनचित् वानरेण तव पराजयः भवति तदा राक्षसपुर्याः लङ्कायाः नाशं निश्चितं विद्धि इति. तस्याः लङ्किन्याः अनुमतिं प्राप्य सीतादेवीम् अन्विष्यन् हनुमान् राक्षसराजस्य राजभवनम् आप्नोत्। अग्रे कश्चन श्लोकः अस्ति, तत् पश्यामः। अत्र सर्वाणि पदानि ज्ञातानि इति भावयामि। वानररचितावज्ञोपज्ञं निजनिलयविलयं, निजनिलयविलयः, निजनिलय कस्य निलयः? एतद् राक्षसनिलयः, तस्य वासस्थानस्यैव अधिष्ठात्री देवता एषा इदानीं स्थिता। अतः तस्य विलयः, तस्य नाशस्य उपज्ञा, प्रथमज्ञानं यद् ब्रह्मदेवात्, ब्रह्मदेवस्य सकाशात् ज्ञातवती, तदिदानीं सा आञ्जनेयम् आवेदयन्ती अस्ति। अतः वानररचित अवज्ञायाः, वानरेण कृत पराजयस्य उपज्ञा, प्रथमज्ञानम्। अतः वानररचितावज्ञोपज्ञः निजनिलयविलयः इति भवति। अत्र द्वितीया विभक्तिः वानररचितावज्ञोपज्ञं निजनिलयविलयम् इति पदप्रयोगः। विहितानुमतिः, विहिता अनुमतिः यया सा, तया लङ्किन्या अनुमतिः कृता, दत्ता तस्मै आञ्जनेयाय। अतः विहिता अनुमतिः यया सा। गृहीतयुवतिविग्रहा, विग्रहः इति पदम् अस्मिन् गद्यभागे द्विवारं प्रयुक्तं भिन्नभिन्नार्थे। तत्काले लङ्कादिदेवताम् आत्मना सह विग्रहं विधातुम्। प्रथमविग्रहः इति पदं युद्धम् इति अर्थं सूचयति। द्वितीयविग्रहः इति मूर्तिः, आकृतिः इति अर्थं बोधयति। इदानीम् अग्रिमं श्लोकं पश्यामः।
राक्षससार्वभौमनगरी रक्षश्च मूरक्षिता
तस्येदं सदनं सुवर्णशिखरम्
बिभ्राणमभ्रावलिम् एतत् पुष्पकमाहृतं धनपते
इत्यादरान् मारुतेः
तत्प्रादर्शयदिन्दुदीपकिरण
प्रद्योतिताशानिशा प्रद्योतिताशानिशा। अत्र रावणस्य भवनम् आससाद प्राप्तवान्, प्राप्तानुमतिः सन् सः आगतवान् अस्ति। तदा एतावत्पर्यन्तम् एकवारं सकृत् समग्रां लङ्कामपि सः दृष्टवान्, कथम् अस्ति तत्र लङ्कायां, कः विशेषः इति जानीमः। सुवर्णमयी लङ्का, तत्र पुष्पकविमानं विशिष्टमस्ति, रावणप्रासादः विशिष्टः अस्ति, समग्रलङ्कानगरी एव विशिष्यते एव। अतः आञ्जनेयः चन्द्रस्य उत्सनायां सर्वमपि स्फुटं दृष्टवान्। किन्तु अत्र कवेः कल्पना काचित् विशिष्टा अस्ति। अत्र कविः वदति निशा, रात्रिकालस्य सः प्रतीक्षां कृतवान् किल दिवा मां कोऽपि न पश्येत् अतः अहं रात्रौ एव सञ्चरामि इति आञ्जनेयः निश्चितवान्। अतः निशा, इदानीं सर्वे देवताः रामकार्ये साहाय्यम् आचरितुं तत्पराः सन्ति, अतः तेन भावेन वा कदाचित् कविः अत्र निशायाः चिन्तनमस्ति, ममापि अत्र सहभागत्वं भवतु इति निशा दर्शयति आञ्जनेयं। किं किं दर्शयति? एषा लङ्कानगरी, एतत् राक्षसभवनं, राक्षसराजस्य भवनम्, एतत् कुबेरात् प्राप्तं पुष्पकविमानम् इति अदर्शयत् इति भावः। अत्र क्रियापदं पदच्छेदं प्रथमं पश्यामः। एषा राक्षससार्वभौमनगरी, रक्षश्चमूरक्षिता, तस्य इदं सदनं सुवर्णशिखरं बिभ्राणम् अभ्रावलिम् एतत् पुष्पकम् आहृतं धनपतेः इति आदरात् मारुतेः तत्र अदर्शयत् इन्दुदीपकिरणप्रद्योतिताशा निशा। आकाङ्क्षायाम् आदौ क्रियापदं किं स्वीकुर्मः? अदर्शयत्। का अदर्शयत्? निशा अदर्शयत्। निशा कथम् अदर्शयत्? निशा स्वयम् अन्धकारमयी अस्ति, किन्तु यदि मानवीकरणं निशा चेतन वस्तु इति चिन्तयतु, तर्हि तस्याः सकाशे कश्चन दीपः अस्ति, सः दीपः एव चन्द्रः। तेन दीपेन, तेन प्रकाशेन सा दर्शितवती, तेन प्रकाशेन, चन्द्रप्रकाशेन सर्वाः आशाः, आशाः इत्युक्ते दिशाः, दिशा सर्वाः दिशाः प्रद्योतिताः, प्रकाशिताः वर्तन्ते। अतः इन्दुद्दीपकिरणैः, चन्द्रस्य, चन्द्रः एव दीपः, चन्द्रदीपः, तस्य दीपस्य किरणैः प्रद्योतिताः, प्रकाशिताः सर्वाः आशाः यया सा निशा इति। अत्र निशा इति पदस्य विशेषणं भवति इन्दुद्दीपकिरणप्रद्योतिताशा इति पदम्। किं कथयन्ती सा अदर्शयत्? यथा पर्यटनसमये, पर्यटनावसरे वयम् ऐतिहासिकं किमपि भवनं द्रष्टुं गच्छामः अथवा पुरातनं मन्दिरं द्रष्टुं गच्छामः, पुरातत्वविशेषज्ञाः अथवा गैड्स् भवन्ति, पुरातत्व विषये किञ्चित् अधिकं ज्ञातवन्तः इति मार्गदर्शकाः भवन्ति, ते भवनस्य पर्यटनं कारयन्तः ते वदन्ति एतत् राज्ञः एतादृशं तत् पुरातनकाले अभवत्, एषः तेषां शासनकालः, अनन्तरं तस्मिन् समये जनाः कीदृशं जीवनं कृतवन्तः इत्यादिविषये किञ्चित् विवरणं यच्छन्ति, तत्रत्य वस्तूनि प्रदर्श्य। तथा निशा किं कथयन्ती अदर्शयत्? प्रथमवारं लङ्कां प्राप्तवान् किल आञ्जनेयः, एषा रक्षश्चमूरक्षिता राक्षससार्वभौमनगरी इति उक्त्वा, एषा राक्षससेनया रक्षिता राक्षससार्वभौमनगरी, राक्षसेन्द्रस्य नगरी, इदं तस्य अभ्रावलिं बिभ्राणं सुवर्णशिखरं सदनम्, इदं तस्य उन्नतं भवनमस्ति, प्रासादः अस्ति, एतत् धनपतेः कुबेरात् पकम् इति कथयन्ती सा दर्शितवती। कस्य कृते एवं दर्शितवती? मारुतेः। कस्मात् हेतोः? आदरात्। रामकार्ये अहमपि साहाय्यम् आचरामि किल इति आदरात्, आदरभावात् सा दर्शितवती। अन्वयः भवति तत्र मारुतेः आदरात् इन्दुद्दीपकिरणप्रद्योतिताशा निशा, एषा रक्षश्चमूरक्षिता राक्षससार्वभौमनगरी, इदं तस्य अभ्रावलिं बिभ्राणं सुवर्णशिखरं सदनम्, एतत् धनपतेः आहृतं पुष्पकम् इति अदर्शयत्। अन्वयार्थः तत्र तस्मिन् समये मारुतेः आदरात् रामकार्ये हनुमान् प्रवृत्तः तस्मिन् बहुमानात् आदरात् इन्दुद्दीपकिरणप्रद्योतिताशा निशा चन्द्ररूपदीपस्य किरणैः प्रकाशिताः दिशाः यया सा एव चन्द्रं दीपत्वेन स्वीकृत्य दर्शयति अतः चन्द्ररूपदीपस्य किरणैः प्रकाशिताः दिशाः यया सा निशा तादृशी निशा निशा रात्रिः एषा इयं पुरः दृश्यमाना एषा इति रक्षश्चमू रक्षिता नगरी रक्षः इति पदं राक्षसः इति पदस्य पर्यायपदं सकारान्त नपुंसक लिङ्गशब्दः रक्षः रक्षसी रक्षांसि रक्षसां चं वा सेनया रक्षिता परिपालिता राक्षससेनया परिरक्षिता राक्षससार्वभौमनगरी राक्षसानां सार्वभौमः कः चक्रवर्ती कः रावणः अतः राक्षसेन्द्रस्य नगरी लङ्का इदं पुरं दृश्यमानं तत् पुरतः दृश्यमानम् इदं किं तस्य एव रावणस्य अभ्रावलिं बिभ्राणं सुवर्णशिखरं सदनम् अभ्रावलिः इत्युक्ते मेघमाला अभ्रः मेघः अभ्राणाम् आवलिः अभ्रावलिः मेघमालां बिभ्राणं मेघमालामेव धारयत् एतत् भवनम् मेघमालां दधानं सुवर्णशिखरं यस्य प्रासादशृङ्गानि सुवर्णमयानि तादृशं भवनं सदनं सदनं नाम भवनं पुनः किं दर्शयति निशा एतत् पुनः पुरतः किञ्चित् विमानं दृश्यते तत् किम् एतत् धनपतेः कुबेरात् आहृतं बलात् प्राप्तम् आहृतम् अपहृतं पुष्पकं 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 नामकं विमानं पुष्पकनामकं विमानम् इति अदर्शयत् इत्थं दर्शितवती अस्य भावार्थः कः निशायाः प्रदर्शकस्य असम्बन्धे अपि सम्बन्धकल्पनं अत्र योजनमस्ति तत् अतः अत्र अतिशयोक्तिः अलङ्कारः सर्वचन्द्रस्य प्रकाशे आञ्जनेयः सर्वं स्फुटं दृष्टवान् इति एव भावः किन्तु तत्र कवेः कविसत्यम् इति वदामः कवेः कल्पना निशा एव सर्वम् आञ्जनेयाय स्फुटं दर्शितवती इति अत्र भावः लङ्कायां तस्यां रात्रौ चन्द्रकिरणैः दिक्षु प्रकाशितासु सत्सु दिक्षु प्रकाशितासु सतीषु हनुमान् राक्षससेनया पालितां लङ्कां राक्षसाधीशस्य रावणस्य अत्युन्नत शृङ्गयुक्तं प्रासादं रावणेन कुबेरात् आहृतं पुष्पकविमानम् इति सर्वं स्फुटं ददर्श इति एव अत्र विषयः अस्ति एकवारं श्लोकं पठामः एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता तस्येदं सदनं सुवर्णशिखरं बिभ्राणमभ्रावलिम् एतत् पुष्पकमाहृतं धनपते इत्यादरान् मारुते तत्रादर्शयदिन्दुदीपकिरणप्रद्योतिताशामिषा एतेन श्लोकेन अत्र विरामं कुर्मः शान्तिमन्त्रम् उक्त्वा समापयामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्ति शान्ति शान्तिः
धन्यवादः भगिनी शुभदिनं
भगिनी धन्यवादः शुभदिनम्